स्वागतम। सो टुडे लेट अस लुक
सच्चे
एट
सटक में
द गीता सोपानम। सर्वे कृपया म्यूट मध्ये गच्छन्तु। So today we'll look at the Dvivachanam also. So last time, a couple of classes ago, we have seen the Saha, Tau, Te and all that. So as we go along, we'll come back to it. So Eshaha Ashwaha for one. Etau Ashwau. एते अश्वाः। वन टू एंड मेनी।
अजय श्रीनिवास,
अनिता भगिनी कृपया पठतु प्रथमम्
महोदय।
अश्वः।
एषः अश्वः, एतौ अश्वौ, एते अश्वाः,
हाँ
सः सैनिकः।
एकनिमिषं कृपया वदतु अश्वः शब्दस्य विषये किञ्चित् वदतु।
अश्वः अकारान्त पुल्लिङ्ग।
सम्यक्।
एषः एकवचन, एतौ द्विवचनम्। अश्वः अश्वौ अश्वाः, अश्वौ
एकवचनं द्विवचनं बहुवचनं। सः किञ्चित् प्रयत्नं करोतु। सैनिकः।
सः गोस् लैक् सः तौ ते, सो सः सैनिकः, तौ सैनिकौ, सः तौ ते सैनिकाः।
सम्यक् भगिनि, धन्यवादः। भवती किञ्चित् उच्चैः वदतु। आडियो सम्यक्। इदानीं सम्यक्। धन्यवादः।
धन्यवादः।
अपर्णा भगिनी अग्रिमं करोतु। ग्रामः।
आं महोदय। एषः ग्रामः, एतौ ग्रामौ, एते ग्रामः। ग्राम इति एकवचन पुल्लिङ्ग।
एते किं भवति?
एतौ ग्रामौ एण्ड् एते ग्रामः। ग्रामाः दीर्घ आकारन्त। Should I continue for the Rathah?
Saha Rathah api karoti.
Saha Rathah, Tau Rathau Rathau, Te Rathaihi. Oh, I'm sorry, Te Rathah.
So, look at Ashwaha. So, all the Akaranta Pullinga Shabdaha will follow the same pattern. Okay? धन्यवादः।
धन्यवादः महोदय।
बालक बालकृष्णमहोदय अग्रिमं करोतु.
आम् नमस्ते. एषः सर्पः. एतौ सर्पौ. एते सर्पाः.
सम्यक् महोदय.
सः यज्ञः. ते यज्ञै. एते यज्ञै.
महोदय, सः तौ ते. एषः अस्ति खलु उपरि, सो इट् विल् बी वेरि सिमिलर् द पेटर्न्. एषः सः एतौ तौ एते विल् बि ते. पुनः वदतु. सः यज्ञः.
सः यज्ञः. तौ यज्ञौ. एते यज्ञैः.
एते किमर्थम्? सः तौ ते. सः तौ ते खलु.
ओके ओके सोरि.
या या आम् नो प्राब्लम्. सः तौ ते यज्ञाः.
एते इस् फार् नपुंसकलिङ्गनु.
Ete is for Eshaha. Eshaha. So if you look on the left side, look at the first one, Ashvaha. Eshaha, Etau, Ete. So Saha will be Saha, Tau, Te.
Pakistan.
Oh. Dhanyavad. भूमि भगिनी योधः करोतु.
नमस्कारः. सः योधः. तौ योधौ. ते योधाः.
सम्यक् भगिनि. धन्यवादः.
धन्यवादः.
हेमाङ्गी भगिनी अग्रिमम्.
एषः कौरवः. एतौ कौरवौ. एते कौरवाः. वीरः अपि. सः वीरः. तौ वीरौ. ते वीराः.
सम्यक् भगिनि. धन्यवादः. अग्रिमं मञ्जुमहोदय करोतु.
एषः पाण्डवः. एतौ पाण्डवौ. एते पाण्डवाः. सः महारथः. तौ महारथौ. ते महारथाः.
अग्रिमं काके काः. सो हियर एक्चुअली द क्वेश्चन वॉज कह कौ के. ओके, कह इज फॉर पुल्लिंग. ओके, हू. सो कह कौ के. सो द आंसर इज हियर एषः एंड सः. सो सिमिलरली फॉर स्त्रीलिंगे एषा गदा, एते गदे, एताः गदाः. ओके, सो इट्स स्लाइटली डिफरेंट. हियर इज एषः एतौ एते, राइट. सो लेट्स डू दिस. राजश्री भगिनी प्रथमं करोतु.
नमस्ते महोदय.
तत्र लिखितम् अस्ति. नमस्ते.
एषा वैद्या, एते वैद्ये, एताः वैद्याः. सा नदी, ते नद्यौ, ताः नद्यः.
धन्यवादः. सो लुक एट द पैटर्न अगेन. एषा, एते, एताः. सो विल बी सा, ते, ताः. ओके.
Okay.
So, Esha will be, you just attach the A. So, Te, Ete, Taha, Etaha. So, with a little bit of practice, it will come easier. Dhanyavada, Bhagini. सरस्वती भगिनी अग्रिमं करोतु.
एषा भक्ता, एते भक्तौ, भक्ते, एताः भक्ताः. सा कूपी, ते कूप्यौ, ताः कूप्यः.
सम्यक्,
धन्यवादः.
सुबोध महोदय करोतु.
नमस्कारः. एषा बालिका, एते बालिके, एताः बालिकाः. सा सूची, ते सूच्यौ, ताः सूच्यः.
सम्यक्,
धन्यवादः.
सुहासिनी भगिनी अग्रिमं करोतु. न
श्रूयते. शृणोति वा? एषा लता, एते लते, एताः लताः. जनन्यौ. ओके. सा जननी, ते जनन्यौ, ताः जनन्याः.
ताः उपरि पश्यतु. लुक् एट् द पेटर्न् अप्. जननी, जनन्यौ, लुक् एट्
जनन्यः.
समीचीनं. पुनः वदतु सम्पूर्ण.
सा जननी, ते जनन्यौ, ताः जनन्यः.
धन्यवादः. उत्तमः.
धन्यवादः.
सुनील महोदय
नमस्ते.
नमस्ते.
एषा सेना एते सेने एताः सेनाः सा चालनी ते चालन्यौ ताः चालन्यः
उत्तमं महोदय धन्यवादः
धन्यवादः
वैभवी भगिनी किञ्चित् उच्चैः वदतु
आम् नमो नमः एषा भेरी एते एते भेरे एताः भेराः सा भगिनी
करोतु करोतु करोतु
सा भगिनी ते भगिन्यौ ताः भगिन्याः
भगिन्यः खलु
भगिन्यः
सो बेस्ड् आन् देट् प्लीस् ट्रै भेरी अगेन्
भेरी मीन्स् वाट्
like a damaru like a drum damaru
okay
so look at the word what is it
esha bheri ete bhere bheriye
how did you do bhagini see it is an ikarant hello So you did bhaginyau so what will be for ete
bheriye
bheriyau so look at bhaginyau
nadyau
But, so it is ikaranta it's not akaranta it was hello
okay ha ha
so bheri so, will be the similar to bhagini that you did
okay ete bheryo etah bheryah
bheryah ha bheryah na bheryah अवगतम्
आम् आम्
धन्यवादः भगिनि
या
एण्ड् गुड् युर् आडियो इस् वेरि गुड् टुडे थेङ्क् यु ओके सो सिमिलर्लि This is for Napunsaka Linga. Kim, Ke, Kani. Sanjana Bhagini, Kinchit Patatu.
Etat Phalam, Ete Phale, Etani Phalani, तत् नक्षत्रं ते नक्षत्रे तानि नक्षत्राणि
सम्यक् नक्षत्रं स्टार् नक्षत्रं नक्षत्रे नक्षत्राणि अग्रिमं प्रयत्नं करोतु ट्रै द नेक्स्ट् लैन् सिमिलर् इन् पेटर्न् टु दि अबव्
एतत् चक्रम् एते चक्रे एतानि चक्राणि तत् उपनेत्रं ते उपनेत्रे तानि उपनेत्राणि
पुनः वदतु, जस्ट् रिपीट् द नक्षत्रम् अगेन्, ऐ मीन् उपनेत्रम् अगेन्.
तत् उपनेत्रं तत् उपनेत्रे तानि उपनेत्राणि
ते उपनेत्रे तानि उपनेत्राणि. उत्तमं भगिनि, धन्यवादः.
धन्यवादः.
रामेश्वरी भगिनी अग्रिमं करोतु.
एतत् पुस्तकम्, एते पुस्तके, एतानि पुस्तकानि, तत् पर्णं, ते पर्णे, तानि पर्णानि.
सम्यक्, धन्यवादः.
धन्यवादः.
साहित्य भगिनी.
एतत् यानां, एते याने, एतानि यानानि.
एतत् किम्? एतत्
एतत् यानां
यानं
यानम् ओके या एतत् यानम्, एते याने, एतानि यानानि. तत् शस्त्रं, तत् शस्त्रं, ते शस्त्रे, तानि शस्त्राणि.
शस्त्राणि,
शस्त्राणि.
सम्यक् भगिनि, धन्यवादः.
धन्यवादः.
शीला भगिनी अग्रिमं करोतु.
एतत् एतत् मुखम्, एते मुखे, एतानि मुखानि, तत् तत् चित्रं, ते चित्रे, तानि चित्राणि.
सम्यक्, उत्तमं, धन्यवादः. बालकृष्णमहोदय अग्रिमं करोतु. बालकृष्णमहोदय अस्ति वा?
आम् आम्. ऐ हेड् द म्यूटेड् नौ. ओके. एतत् नगरम्, एते नगरे, एतानि नगराणि. तत् बलं, ते बले, एतानि तानि तानि बलानि.
सम्यक्, धन्यवादः. ओके. अपर्णा भगिनी किञ्चित् पठतु. अवधेयम्,
आं महोदय. अवधेयम् अकारान्तः पुल्लिङ्गः, एकवचनं यादवः, द्विवचनं यादवौ, बहुवचनं यादवाः. आकारान्तस्त्रीलिङ्गः एकवचनं सेना, द्विवचनं सेने, बहुवचनं सेनाः. ईकारान्तस्त्रीलिङ्गः एकवचनं मही, द्विवचनं मह्यौ, बहुवचनं मह्यः. अकारान्तः नपुंसकलिङ्गः एकवचनं सुखं, द्विवचनं सुखे, बहुवचनं सुखानि.
धन्यवादः.
क्षम्यतां महोदय. अवधेयं, वाट् डस् दट् मीन् अवधेयं प्लीस्?
लैक् नोटिस्, अटेन्शन्. सो इट् इस् दिस् इस् अ टेबल् दट् क्लियर्लि एक्स्प्लेन्. सो इट् इस् गुड् टु कीप् दिस् कैण्ड् आफ् लैक् मेमरैस्ड्.
थेङ्क् यु, थेङ्क् यु.
So, yeah, akarant, akarant, ekarant, and everything it is given here. So, Bhumi Bhagini, kinchit drishtva vadatu balakaha.
Balakaha, balakau. बालकाः.
पुस्तकं,
पुस्तकं, पुस्तके, पुस्तकानि.
उत्तमं भगिनि, धन्यवादः.
धन्यवादः.
हेमाङ्गी भगिनि, नदी वदतु.
नदी, नद्यौ, नद्यः.
लता,
लता, लते, लताः.
उत्तमं भगिनि, धन्यवादः.
धन्यवादः.
अनिता भगिनि, उत्पेटिका.
उत्पेटिका, उत्पेटिके, उत्पेटिकाः.
उत्तमम्. संजना भगिनी, रामः वदतु. किं से रामः?
रामः, रामौ, रामाः.
उत्तमम्. एण्ड् आल्सो ट्रै रमा.
रमा, रमे, रमाः.
उत्तमं भगिनि, धन्यवादः. Okay, so here also it is given all the forms. Okay, ekavachanam, dvivachanam, bahuvachanam. Sheila Bhagini, patatu.
Esaha, etau, ete. सः, तौ, ते, एषा, एते, एताः, सा, ते, ताः, एतत्, एते, एतानि, तत्, ते, तानि.
सो दिस् इस् एषा, इट्स् नाट् एषा, इट्स् एषा. एषा, एते,
एषा, एषः.
Yeah, Eshaha and Esha, and it is Saha and Sa. So it will be good for everybody to keep this sort of memorized, because this will come very often. And we can combine this with all the words given here, which we will do as a home assignment. Okay. So that will make it clearer as to, you know, how you combine Eshaha or Etau with the Dvivachanam. Similarly here, Rajshri Bhagini, Atra Patatu.
Kaha, Kau, Ke, Ka, Ke, Kaha, Kim, Ke, Kani.
So this also you have to keep in mind. Kaha, Kau, Ke, Ka, Ke, Kaha, Kim, Ke, Kani.
Rajya Mahadaya, ekah prashnah asti. Is there any preference for like Nartakyaha? So we should use Etaha or Taha or anything we can use.
Bhagini, I couldn't hear you properly. Can you speak a bit louder?
Yeah, yeah. So for the first exercise, ek prashna, ekah prashnah. Is there any preference? Should we use like etaha or taha or anything for like nartakyaha? So etaha nartakyaha or taha nartakyaha, any? We can use either can or, right?
Yeah, okay. Either or. So you'll have to match. Yeah, only thing is it has to be in the same lingam vachanam.
Yes. Yeah. Okay.
Lingam and Vachanam, that is the main thing to focus on.
Okay.
Usha Bhagini, kinchit prayatnam karotu.
Shura. So what question would you ask with Shura?
Keshuraha.
Uttamam. Agrimam.
Kim Pushpam.
Samyak.
Ke Yodhaha.
Dhanyavada Bhagini. Uttamam.
Dhanyavada Bhagini.
Subodh Mahodaya, Shastrani Late Karotu.
Kani Shastrani Ke Late.
Uttamam Mahodaya. Dhanyavada. So like this, we'll do this also as a home assignment. So this one, and I'll send you an email, but please try to do this, everybody. Will make things very clear.
Mahadeva, can you pause on the homework? I'll take a screenshot.
Okay, all right. It'll be in the recording, or I can take a photo and send it to you also. But yeah, you can. Do you want to take this?
Yeah, I took it.
Do you want the other one also?
I took that one. I'm
okay. Then your other. So let's look at a katha.
ओके, किञ्चित् भिन्नपाठं कुर्मः. एकां कथां पठामः. सरलकथा एव अस्ति. आलस्यं हि, आलस्यं हि, आलस्यम् इत्युक्ते किम्? आलस्यं लेज़िनेस्. वैभवी भगिनी वाक्यद्वयं पठतु.
आं महोदय. कश्चन ग्रामः तत्र एकस्मिन् परिवारे सप्तभ्रातरः आसन्. ते सर्वे अपि अलसाः.
आम् आम्. कश्चन ग्रामः, तत्र विरामं करोतु. देर् इस् अ लैन् रैट्, इट् इस् लैक् अ फुल् स्टाप् रैट्. सो यु हव् टु जस्ट् पास् अ मिनिट्, सो पास् अ सेकेण्ड् ओर् सो. कश्चन ग्रामः, आम् उत्तमं भगिनि. कश्चन ग्रामः इत्युक्ते किं? सो देर् इस् अ सम् ग्रामः, सम् स्माल् टौन्, ओके, विलेज्. तत्र एकस्मिन् परिवारे सप्तभ्रातरः आसन्. ओके, तत्र देर् एकस्मिन् परिवारे वन् देर् इस् देर् वास् अ वन् कुटुम्बं. कुटुम्बम् इत्युक्ते वन् फेमिलि. सप्तभ्रातरः आसन्. देर् वर् सेवेन् ब्रदर्स्. ओके, अग्रिमं पठितवती वा अग्रिमवाक्यम्? अन्य कोऽपि करो. हेमाङ्गी भगिनी अग्रिमवाक्यद्वयं पठतु.
कदाचित् तेषां मनसि इच्छा उत्पन्ना. सोरि, ते सर्वे अपि आलसाः. कदाचित् तेषां मनसि इच्छा उत्पन्ना यत् पायसं खादनीयम् इति.
सो ते सर्वे अपि अलसाः. All of them were lazy. Okay, te sarve, all of them. Kadachit, one day, te sham manasi, in their mind, ichha utpanna. Okay, they had a desire. Desire arises. Yet, payasam khadaniyam iti. So, they wanted to eat payasam. Okay, there was a desire in their mind. Okay. अग्रिमं का पठति? भूमि भगिनी पठतु अग्रिमवाक्यद्वयं.
ततः ते सर्वे मिलित्वा कथञ्चित् पायसं सिद्धं कृतवन्तः. परं पायसं यदा सिद्धम् अभवत् तदनन्तरं ज्ञातं यत् गृहे शर्करा एव नास्ति इति.
उत्तमं. सो किम् अभवत् ततः? देट्स् वै. ओके, ते सर्वे मिलित्वा कथञ्चित् पायसं सिद्धं कृतवन्तः. सो देर् फोर् वाट् हेपन्, दे वाण्टेड् टु ईट् पायसं, रैट्? सो आल् आफ् देम् मिलित्वा, आल् आफ् देम् टुगेदर् कथञ्चित् सम्हौ, ओके, सम्हौ पायसं सिद्धं कृतवन्तः. दे मेड् द पायसं रेडि. ओके, परं बट् पायसं यदा सिद्धं, वेन् दे प्रिपेर्ड् द पायसं, तदनन्तरं ज्ञातं, देन् इट् वास् नोन् यत् गृहे शर्करा एव नास्ति इति. सो देर् वास् नो शुगर् इन् द हौस्. सो दे गाट् टु नो. ओके, दे गाट् टु नो देर् वास् नो शुगर् इन् द हौस्. अनिता भगिनी अग्रिमम्.
इदानीं विपणिं गत्वा शर्करां कः आनयति इति तेषु विवादः उत्पन्नः. तदा तेषु अन्यतमः किञ्चित् उपायं सूचितवान्. वयं सर्वे स्वस्थालिकां पायसेन पूरयामः.
आम्, सम्यक्. किम् अभवत्? इदानीं विपणिं गत्वा शर्करां कः आनयति? ओके, सो नौ गोयिङ्ग् टु द शाप्, हू विल् गेट् द शुगर् इति तेषु विवादः उत्पन्नः. विदिन् देम् देर् वास् अ आर्ग्युमेण्ट् विवादः. ओके, दे वर् थिङ्किङ्ग् हू विल् गेट्. सो तदा तेषु अन्यतमः इन् देन् वन् आफ् देम् कञ्चित् उपायं सूचितवान्. वन् आफ् देम् ही थाट् आफ् वन् ऐडिया. ओके, उपायं सूचितवान्. हि सेट् वयं सर्वे स्थालिकां पायसेन पूरयामः. ओके, सो वाट् हि सेट्, आल् आफ् अस् विल् अवर् प्लेस् विल् फिल् वित् द पायसम्. दट्स् वाट् हि सेट्. ओके, सुहासिनि भगिनि अग्रिमवाक्यद्वयं पठतु.
ततः स्थालिकाः पुरतः स्थापयित्वा मौनेन उपविशामः. अस्मारु यः आधौ
अस्मासु. There is a line
here. अस्मासु यः आधौ वदिष्यति सः एव विपणिं गत्वा शर्कराम् आनेष्यति इति.
They filled every, what we'll do, we'll fill all of our plates with the payasam. Tatah stalikah puratah sthapayitva maunena upavishamaha. What we can do? Then we'll sit in front of the plates quietly. Okay? Asmasu yaha adav vadishyati. Within us, okay, who speaks first? ओके, आदौवदि, हू स्पीक्स् फस्ट्, सः एव विपणीं गत्वा शर्कराम् आनेष्यति. हूएवर् स्पीक्स् फस्ट्, ही ओन्लि विल् गो टु द शाप् एण्ड् गेट्स् द शुगर्. ओके, देट् वास् द ऐडिया हि मेड्. रामेश्वरी भगिनी, अग्रिमवाक्यद्वयम्.
सर्वे अपि एतम् उपायम् अङ्गीकृत्य स्थालिकाः स्थापयित्वा पुरतः उपविष्टवन्तः.
पुरतः.
ते सर्वे अपि महा अलसाः इति कारणतः घण्टां यावत् मौनेन उपविष्टवन्तः एव.
सर्वेपि एतम् उपायम् अङ्गीकृत्य, आल् आफ् देम् एग्रीड् फार् दट् प्लान्. ओके, वित् दट् प्लान्. सो स्थालिकाः स्थापयित्वा पुरतः उपविष्टवन्तः. सो आल् आफ् देम् प्लेस् द प्लेट्स् इन् फ्रण्ट् आफ् देम्. ओके, ते सर्वेपि महा अलसाः इति कारणतः. सो दे आल् आफ् देम् वेर् वेरि लेज़ि. ओके, देट्स् वै घण्टा यावत् फार् अन् अवर्. ओके, मौनेन, आल्मोस्ट् फार् अन् अवर् आर् सो, मौनेन उपविष्टवन्तः एव. ओके, सो आल् आफ् देम् वेर् सिटिङ्ग् क्वायट्लि. ओके, मौनेन एव उपविष्टवन्तः. अपर्णा भगिनी, अग्रिमवाक्यद्वयं.
न कोऽपि एकमपि शब्दम् उच्चारितवान्.
अत्रान्तरे केचन शुनकाः तत्र आगतवन्तः.
आं भगिनि, सो न कोऽपि एकमपि शब्दम् उच्चारितवान्. ओके, सो नाट् इवन् वन् not even one word he said, nobody said a word. Okay, that's uccharitavan, so he uttered a word. So atrantare kechana shunakah tatra agatavanta, during that time some dogs came there. Okay, some dogs came there. Sunil mahodaya, agrima vakya dvayam patatu.
ते निश्चलम् उपविष्टवान् एतान् दृष्ट्वा एते मृताः इति मृत्वा इति मत्वा पुरतः स्थालिकासु विद्यमानं पायसं सर्वं खादितवन्तः. ततः सन्तुष्टाः भूत्वा परस्परम् अभिनन्दितवन्तः.
किम् अभवत्? अत्रान्तरे केचन शुनकाः तत्र आगतवन्तः खलु. सो सम् डाग्स् केम् देर्. ओके, सो ते निश्चलम् उपविष्टवान् एतान् दृष्ट्वा, उपविष्टान् एतान् दृष्ट्वा. सो दे सा दीस् सिटिङ्ग् स्टिल्, रैट्? एव्रिबडि वास् नाट् मूविङ्ग्, सिटिङ्ग् स्टिल् आल् आफ़् देम्. दे थाट् एते मृताः, दे आर् आल् डेड् इति मत्वा. सो दे थाट् दे आर् आल् डेड्. पुरतः स्थालिकासु विद्यमानं, सो पायसं सर्वं खादितवन्तः. सो दे विल् दे एट् आल् द पायसं इन् फ्रण्ट् आफ् देम्. ओके, ततः सन्तुष्टाः भूत्वा परस्परम् अभिनन्दितवन्तः. सो देट्स् वै दे वर् वेरि हेपी एण्ड् दे वेर् कङ्ग्राचुलेटिङ्ग् ईच् अदर्. सरस्वती भगिनी, अग्रिम वाक्यं पदतु तत्र.
तत्पश्चात् एकः शुनकः तेषु अन्यतमस्य अलसस्य
मुखम् अत्र
मुखं जिह्वया लेटि सः लेडि लेडि सो इट् लुक्ड् एट् दट् फेस् टङ्ग् सः तत्क्षणे एव क्रोधेन रे तुष्टशुनकः सर्वं पायसं खादित्वा अपि तृप्तिः न प्राप्ता पुनः मामपि खादितुम् आगतवान् वा इति आक्रोशन् उत्थितवान्.
आं धन्यवादः. सो वाट् हेपन्, ओके, तत्पश्चात् किम् अभवत्? एकः शुनकः तेषु अन्यतमस्य अलसस्य मुखं जिह्वया लेडि. ओके, सो वाट् हेपन्स् आफ्टर् देट् वन् डाग् वाट् हेपन् वन् आफ् देम् रैट् वन् आफ् देम् लेज़ी गैस् ओके अन्यतम वन् आफ् देर् लेज़ी पीपल् मुखं जिह्वया लेडि ही लिक्ड् देट् डाग् लिक्ड् वन् आफ् देर् फेस् ओके वित् हिस् टङ्ग् ओके सः तक्षणे एव क्रोधेन सो दट् गै इमीडियट्लि सो वित् हि वास् आङ्ग्रि रैट् सो वित् कोप वाट् इस् दिस् रे दुष्ट हि वास् ए बहु दुष्ट लैक् दट् सो Shunaka, he's saying, he's saying, Retushta Shunaka, Sarva Paisam Kha Ditva Api Triptihi Na Prapta. So all you ate, all the payasam, all after eating also you are not satisfied. Puna Maam Api Khaditum Agatavanva. So you want to eat me now also? Eat me now? That's what that guy said. Iti Akroshina Uttitavan. So Akroshan Uttitavan. So he was angry and he got up. Okay. He said, you are not satisfied by eating all the payasam. So you want to eat me also? That's what he said. And with being angry, he just got up. Okay.
Bhagini, for akroshan, it's akroshan, but if we use tritiya vibhakti, shouldn't it be like akroshen?
No. Here it's a different form, Bhagini. It's like, it's a different form there. Akroshena, it's not that. It's Akroshan means like Shatru Pratyaya, we call it. So he was with angry, it's a different form. For now, we haven't gone through that.
Okay.
So you can just take it as
a okay, on the angry. Top, because it was like with Krodhena, so I thought similar
yeah.
thing. Okay. Then you know.
So, Bhagini, this is like we have seen when there are two things to be done, you do one and then do the other. Aham tatra gatva samkritavan. So, here,
yeah.
So gatva is you do something and then do something else. Right?
Mm.
So, here it is like you are doing two things together.
Mm.
Okay, so. You have seen I don't know if you remember, you have seen Patan and we told you to ignore that. So this is of that form. Don't get confused, but this is doing two things at the same time.
So he is angry. At the same time.
So
okay. Akroshan. So he was angry. Okay. Yes.
He was angry and stood up.
Okay.
He stood up. Uttitavan means he stood up. Okay.
He stood up with
anger is what it means.
Hmm. Okay, so when we do two things together, then there is no tritiya is used.
No. It's nothing like that. This is kind of used as a verb. It's a verb form, that's why. Otherwise, akroshena also, if you say, the meaning is not wrong, but it's used in a different form. It's like if we haven't covered, that's why I didn't want to go that far. But anyway, for now, you got the idea, right? You can use Akroshena. Okay, you can use it.
Okay. Okay.
So
thank you for explaining that.
Yeah. No problem. Good question. Okay. So kim bhavad bhavati eva patatu agrima vakyam.
Tada anye api utthaya eka kanthena uktavantah eshah sambhashanam kratavan iti.
धन्यवादः तदा अन्येपि उत्थाय एककण्ठेन उक्तवन्तः सो ऑल ऑफ रेस्ट ऑफ देम आल्सो गेट गॉट अप राइट उत्थाय राइट लपन्त उत्थाय एककण्ठेन उक्तवन्तः ऑल विथ वन वॉइस दे सेड एषः संभाषणं कृतवान् So this guy spoke, okay, that's what they said, with one voice, okay, all of them got up and said in one voice. Agrimam Balakrishna Mahodaya Vakya Dvayam Pratatu Tatra Etesham.
Etesham Kolahalam Srutva Parshva Prakoshthe सुप्तः तेषां पिता जागरितः सः बहिः आगत्य सर्वं वृत्तान्तं ज्ञातवान्
सम्यक् सो किम् अभवत् एतेषां कोलाहलं श्रुत्वा ओके दीस् पीपल् वर् मेकिङ्ग् लाट् आफ़् नाय्स् रैट् देर् नाय्स् Hearing their noise, Parshva Prakoshte, right, there was a room next to the, that the Suptaha Tesham Pita, father was sleeping, okay, Tesham Pita Jagarita, so he woke up, his father woke up, he was sitting, sleeping in the next room. Saha Bahi Agatya Sarvam Rittantam Jnatavan, so he came outside and got to know all the, whatever happened, all the happening, okay, Sarvam Vrittantam, he got to know all the happenings, okay. How is Sunil Maudaya, oh, Patitavan, Kalu, Usha Bhagini, Tataha Aram.
Ashtu Bhagini, Tataha, Jeshtasya Putrasya Kapole Chapetam Datva Krodhena Uttavan Bhoho Mukha Bhavantu Jeshtarasti Bhavata Eva Shakara Anetavya Asid Bhavanta Alakya Karana Sarvam Payasam Sunakhe Bhya Dattavan. Danyavadana
Dattavanta. Danyavadana. So, Kim Abhavad, Sa Bhai Agatya Sarvam Vrittantam Jnatavan, Kalo. So, Tataha Jeshtasya Putrasya Kapole, okay, Chapetam Dattva Krodhena Uktavan. So, what he did, so therefore, he Jeshtasya means oldest one, okay, oldest son's cheek, okay, Chapetam. So, he gave a slap, okay, on his cheek. Oldest son's cheek, Krodena Uktavan. He said with, he was very angry, right? He was angrily said, Boho Murka, Bhavantu Jesta. You are oldest one, right? Shabdam Bhavata Eva Sharkara Anitavya Asit. You should have gotten the sugar since you are the oldest. That's what he said. Who said? Their father. Manju Mahodaya, samapayatu.
Bhavantaha alasya karanat sarve payasa शुनकेभ्यः दत्तवन्तः आलस्यं मनुष्यस्य परमशत्रुः अस्ति इति पितुः वचनं श्रुत्वा ज्येष्ठः तं क्षमां याचितवान् अन्ये अपि तम् अनुसृतवन्तः तदारभ्य सर्वे भ्रातरः आलस्यं परित्यज्य परिश्रमेण कार्यं कृतवन्तः. धन्यवादः.
उत्तमं महोदय. किम् अभवत्? भवान् तु ज्येष्ठः अस्ति, भवन्तः आलस्य कारणात् सर्वं पायसं शुनकेभ्यः दत्तवन्तः. सो he said, so you, because of all your laziness, all the payasam you gave to the dogs, right? Sunakke bhyah dattavanta. So here chaturthi, see sunakke bhyah, when the danam asti dattavanta, okay, sunakke bhyah dattavanta. Alasyam manushyasya paramashatruhu asti iti, okay. So laziness is human beings, paramashastru, it's a enemy of humans. So he's telling his sons. Pituhu vachanam shrutva jeshtaha tam kshamam yachitavan. So he, listening to the father, that oldest one, he asked for forgiveness of his father. Anne api tam anusritavanta. All of them followed, all other siblings. तदारभ्य सर्वे भ्रातरः आलस्यं परित्यज्य परिश्रमेण कार्यं कृतवन्तः. फ्रोम् देर् आन्वर्ड्स् all of them brothers without laziness they did lot of work, okay, and they did lot of work, that's parishramena karyam kada, they did the work with lot of effort. So that's the story. It's like a Balamodini means it's like simple, they use simple words. So for now I think we can stick to, I didn't want to pick a little very complex one, so I'm trying to pick stories what we have covered so far, okay? So yeah. Hopefully everything is clear. Go ahead.
Sarala Bhagavati, the last paragraph, Bhavantaha, Alasya, is it should be Alasya Karanath, Panchami Vibhakti? Is it a typo?
Karanat, I think it's Karanat.
Karanat?
Okay. Good observation, Mohdaya. Karanat. Tadamiva. Agrimam Vibhakti Valeri Kinchit Pashyamah, Chaturthi Vibhaktim Arambhameva Kritavantah Iti Manne.
Okay, so maybe from next week or so, we may not explain, and maybe we'll have some of you explain, okay? So, we'll see how much we understand. And don't be concerned if you don't know everything, that's how we learn, okay? We have to try to do a little bit more each week, and if you make mistakes, no problem. We all make mistakes, so, and we'll see how that goes. So I think last class, we just did the first and maybe the okay. Atra prayatnam kurmaha. But before that, maybe we'll just look at this once again. So only the chaturthi line. Can you read Rameshwari Bhagini? For all the Rama, Sita and Vanam. Can you read across?
Ramaya Ramebhyah Sitayai Sitabhyah Vanaya Vanebhyah Munae Munibhyah Matye Mataye Matibhyah Varine Varibhyah.
Dhanyavada Bhagini.
Dhanyavada.
Subodh Mahodaya, Ukaranta Patatu.
शिशवे शिशुभ्यः धेन्वे
धेनुभ्यः, मधुने मधुभ्यः.
ऋकारान्त अपि.
पित्रे पितृभ्यः, मात्रे मातृभ्यः, धातृणे धातृभ्यः.
धन्यवादः महोदय.
धन्यवादः.
सो जस्ट् अ काइंड ऑफ लाइक अ रिफ्रेशर. बालकृष्णमहोदय अत्र पठतु. नेता चतुर्थी. बालकृष्णमहोदय म्यूट् मध्ये अस्ति वा?
सारी. नेत्रे नेतृभ्यां नेतृभ्यः.
नदी नद्यै
नद्यै नदीभ्यां नदीभ्यः. वध्वै वधूभ्यां वधूभ्यः.
धन्यवादः महोदय. सो नद्ये यू केन् रैट् इट् इन् अ कपल् आफ़् डिफ्रेण्ट् वेस्. दिस् इस् हाफ् द एण्ड् यै एण्ड् यू केन् रैट् इट् द अदर् वे आल्सो. ऐ थिङ्क् इट्स् नाट् हियर् रैट् नौ. ओके. वैभवी भगिनी अत्र पठतु. तद्शब्दाः.
आं महोदय. विच्
चतुर्थी फार् द तद् शब्द. तद् इत्युक्ते सः सा तत्.
आम्. तस्मै ताभ्यां तेभ्यः. फार् स्त्रीलिङ्गे तस्यै ताभ्यां ताभ्यः. नपुंसकलिङ्गे तस्मै ताभ्यां तेभ्यः.
सम्यक्. धन्यवादः भगिनी.
धन्यवादः.
हिमाङ्गी भगिनी अग्रिमं तत्र पठतु. एतद् शब्दस्य
एतस्मै एतेभ्यः सोरि एतस्मै एतेभ्यः एतस्यै एताभ्यः एतस्मै एतेभ्यः.
उत्तमं. ओके. सो दिस् इस् काइंड ऑफ लाइक अ क्विक रिविजन. लेट्स बिकॉज वी हैव टू डू द एक्सरसाइजेस नाउ. अनिता भगिनी प्रथमवाक्यं प्रयत्नं करोतु. रमा भिक्षुकाः नाणकानि दत्तवती. सो भिक्षुकाः यू हैव टू पुट् द चतुर्थी विभक्ति.
रमा भिक्षुकेभ्यः नाणकानि दत्तवती.
सम्यक्. उत्तमम्. अपर्णा भगिनी सख्यः वाक्यस्य करोतु.
सख्यः इति सखी बहुवचनं स्त्रीलिङ्ग ईकारान्त. सो इट् विल् बिकम् सखीभ्यः. रमा सखीभ्यः मधुरं दत्तवती.
भगिनि धन्यवादः. भूमि भगिनी सर्वे.
रमा सर्वेभ्यः पानीयं दत्तवती.
उत्तमम्.
always listening, sir. Swagatam, sarvebhyah. We always used to listen, swagatam, sarvebhyah. So it's, sarvebhyah is very familiar.
Dhanyavada, Bhagi. Good, you are paying attention. Uttama. Manju Mahodaya, agrimam prayatnam karotu.
Okay.
Te.
Rama. Okay. Tebhya. Upaharam dattavati.
Tebhya. Rama, tebhya upaharam dattavati. Upaharam. So there is a tebhyah is with a visarga. Tebhyah. Dhanyavada, Mohandiya.
Dhanyavada.
Raju Bhagini, agrimam karotu.
Rama, mahila bhyah phalam dattavati. Mahila.
Samya. Mahila bhyah phalam dattavati. Rameshwari Bhagini, agrimam karotu.
Rama bandhavebhyah tambulam dattavati.
Fine. Okay, so we saw where Dana Kriya Kutra Piyasti Tatra Chaturthi Vibhaktihi Prayogam Kurmaha. That's what we saw here. Danam. Okay. Danam, we have seen with Dattavati, Dattavan, Dadami, is all Chaturthi. So the next, so what we have to keep in mind is, you use the Chaturthi Vibhakti with certain kinds of verbs or Kriya. Okay, the next one is Rochate. So wherever you use rochate, like we had seen, somebody had asked the question in, I think, one of the earlier classes. So with rochate, you have to always use the chaturthi vibhakti. So you are giving, the first one was you are giving somebody. So this is, rochate means I like. So rochate, and then namaha, when you say namaha, Shivaya Namaha, we say, right? So that is also Chaturthi. So Rochate Namaha. And then when you have things like this, hopefully you can see the screen. The Kupyati, Asuyati, Irshyati, Duhyati. So for all Duhyati, for all this you use the Chaturthi. So we look at it one by one. Rochate. Okay, we can so Usha Bhagini with okay, right, read the Udaharanam, or read from the top, from the two. Slowly read.
Astama. Rochate iti yatra prayogaha tatra yasmai rochate tasya चतुर्थी विभक्तिः भवति। यत् रोचते तस्य तु प्रथमा विभक्तिः एव। उदाहरणं रामाय मधुरं रोचते। कार्यं
सो डू कार्यं विद् भगिनी।
अस्तु कार्यं भगिन्यै रोचते।
सम्यक् भगिन्यै कार्यं रोचते। धन्यवादः। अनिता भगिनी वित् रामा डु कार्यं न रोचते।
रामाय कार्यं न रोचते।
सम्यक्। इट्स् ए लिटल् डिफिकल्ट् टु रीड् दिस् so I'll guess I'll have to tell you
Ajay Mahodaya, if you bigger just the circle, it has the kriyapadam in the middle as well, so we don't need the other side, like on the 33 page.
That yeah, but can enough. You read it? I can't blow it
yeah,
anymore.
Yeah, if you just... Oh, you cannot? Oh, okay.
So that's why I thought I will tell you.
Okay.
Yeah, so... Manju Mahodaya, Sita and Patanam, Rochate, Karotu.
Sita Jai, Patanam, Rochate.
Samyak. Sheila Bhagini, for Putraha and Patanam, na rochate.
Putraya Patanam na rochate.
Uttamam Bhagini, dhanyavada. लेखनं भूमि भगिनी भूमिः उपयुज्य करोतु।
बहुवचनं
यूज़ योर नेम एंड यूज़
लेखनं ओके भूम्यैः लेखनं रोचते।
Bhagini, Bhoomyai, Bhoomyai, there is no visarga. Puna vadatu?
Bhoomyai, lekhanam rochate.
Sanyak. Dhanyavad.
Dhanyavad.
साहित्य भगिनी चन्द्रः पाकः शीला भगिनी
शीला यू से
डिड यू डू
sorry
did you do before for yeah. the chaturthi
yeah
okay sahitya bagini I'm sorry I think I got confused sahitya bagini Can you do putri and pakah? Rochate, na rochate. Asti va, sahitya bhagini? Okay. Saraswati bhagini karoti.
Pakah, right?
Putri.
Putri. पुत्र्यै पाकं न रोचते
पाकः न रोचते
पाकः ओके पाकः न रोचते
सो हियर
इट शुडन्ट बी इन द्वितीय विभक्ति
सो यत् रोचते सी हियर वेयर माय कर्सर इज यत् रोचते तस्य तु प्रथमा विभक्तिः एव Okay.
Okay. So, putriyai pakaha na rochate.
Ajay Mahodaya, I have a question. Since we haven't seen bhumi, it's going to be as a matihi because bhumi is Raswa, right? We have seen Nadi, Dirga, but not the Raswa Ikara. And Mati, he has the Raswa, Visargaha. That's why I was a little confused how to use it. How it's going to form the Chaturthi.
You're not coming across clear to me, Bhagini. Maybe we'll have Sarla Mahodaya answer you. I'm not able to hear you.
Yeah. Okay. No. Did you see the tables? It doesn't matter, right? You have to look at the table. How it goes in Chaturthi, almost they are both are same.
So, you can look at for the Rasvai, because Bhumi is the Rasvai. So, Rasva and Dirga form will be the same for Ikara and Strilinga?
Almost the same, right? Look at the tables.
Yeah, I'm looking at it. That's why. Because Mati, he has the Visargaha and Nadi is the Dirgaha. So that's why when Ajay Mahodaya asked me, I was a little confused how to form it.
No. It's like Nadi. That doesn't matter how it is here. It's like how it changes the form. Okay. So like you can't just apply that rule. Whether it's Visarga, you need the same Visarga or whatever, you have to follow the table. Table in the
okay,
sense,
so,
yeah, you can.
So we have to say Rasva or Dirga, so Visarga doesn't matter. So Bhumi, I have to do Bhumayai or Bhumiyai.
Bhumiyai, you have to, yeah. Yes, exactly. Oh. However, this table says, because see, we don't use it, right? If you keep reading a lot of things, it comes naturally. But we are not immersed, right? That's why we have to go all these with the tables, right? How it is formed.
So since I was thinking like Matihi, so it should be all the Visargas only with the Rasva. So that's what my understanding. So it's now clear
it's not,
that all the Rasva Ikarant. Okay.
No, you don't have to do all the visarga, it's nothing like that. You have to look at this table and follow it, okay? That changes.
Yeah. So, rasva, strilinga will be as same as mati.
Bhagini, bhumi is also like mati only, bhumihi with the visarga. So, that's why it will be bhumyai. Here if you see, it is matyai, right? So, bhumi will be
so bhumyai. In the original form, it's a bhumihi.
Right, exactly, bhumihi. Yeah.
Oh, okay, now I got it. Okay, dhanyavad.
Yeah.
My understanding was bhumihi or matihi would be for the prathama singular. Am I right?
Right, yeah. So the chaturthi will be matyai or, as you can see here, or bhumyai.
Hmm. Yeah.
Clear? Did your question get answered, Vagini?
Very clear.
You
want your name with the dirga, like bhumi, then you can follow Nadi, right? It's a name.
Nadi, yeah. But it was rasva, that's why I was confused, but it's much
yeah in this case they are both it'll be the yai. Okay, nadi will be nadyai, bhumi will be
bhumi.
Your line wasn't very clear, Vagini. I don't know,
not sure why,
but now it is okay.
It's okay now. Okay, but I understand very clear now. Then
अग्रिमं संजना भगिनी भीमः रोटिका प्रयत्नं करोतु.
One second. Rotika and what's the word?
So भीमः. So भीमः, you have to put the चतुर्थी विभक्ति. So भीमः is like रामः. And Ramaha, we have seen, is Ramaya. So, Bhimaha will be what?
Bhimyaha. Or Bhimya.
Bhimaya.
Bhimaya, yeah. So, Bhimaya. Bhimaya. Rodika. Rochate.
रोचते. भीमाय रोटिका रोचते. भीमा लाइक्स रोट ब्रेड समथिंग लाइक दैट. सो यू हैव टू लुक एट दिस टेबल भगिनी एंड गेट यूज्ड टू इट. सो ऑल द व्हेन यू लुक एट अकारांत इट शुड कम ऑटोमेटिकली लाइक रामाय Bhimaya, Krishnaya, and then for the Sri Linga, Akara, the Sri Linga, it'll be like Sita Yay. So if you just read this and get, familiar, maybe you will have to do some Ratnam at this point. Means memorize. And then with usage, it'll become clearer. I mean, for everybody. I mean, Idanim tu Ratnam Karaniyam Eva. So after some time, it'll become more and more, it'll roll off your tongue easier.
Okay.
Rameshwari Bhagini, Lata Rotika.
Lata Yai Rotika Rochade.
Samyak. Okay, so let's do a couple more and then we can move on. Okay. सुनील महोदय चित्रं can you do for aham जानाति वा अहं
न जानामि अहं
मह्यं
मह्यं धन्यवादः
नो देट् इस् अ लिटिल् डिफ़्रेण्ट् ओके मे बी विडन् डू देट् सो So, mayyam, avabhyam, asmabhyam, mayyam.
Mayyam.
Okay, do for kaha. I think that's easier.
Kasmai. Kasmai chitram rochate.
Samyak mahodaya.
Dhanyavaadaha.
Okay, so that's the thing to keep in mind. Okay, whenever you use rochate, who likes it should be in the Chaturthi Vibhakti. And what he or she likes should be in the Prathama Vibhakti. Okay, that was what was mentioned. So similarly for Namaha. Aparna Bhagini Kinchit Patatu Atra Namaha Slowly
Namaha Ityasya Shabdasya Yogaha Atra Tasya Shabdasya Chaturthi Bhavati Udaranam Devaya Namaha Visheshaha Namaskaromi Iti Kriyapadasya Prayogaha Krutaha Chet Tu यथा अहं देवं नमस्करोमि अभ्यासः के कस्मै नमः इति वदन्ति इति निर्दिशत
धन्यवादः भगिनि So just following up on the example, Rama Bhaktaha. So Rama Bhaktaha kim karoti? Rama Bhaktaha Ramaya Namaha iti vadanti. Okay, that means Rama Bhaktaha means what? They are Bhaktas of Rama. So what do they say? They say Ramaya Namaha iti vadanti. Okay. अनिता भगिनी प्रयत्नं करोतु शिवभक्ताः किं वदन्ति
शिवभक्ताः शिवाय वदन् नमः इति वदन्ति
सम्यक् उषा भगिनी दुर्गाभक्ताः किं वदन्ति
दुर्गाभक्ताः दुर्गायै नमः इति
उत्तमं धन्यवादः रामेश्वरी भगिनी देवी भक्ताः किं वदन्ति
देवी भक्ताः देवै नमः इति वदन्ति
देव्यै नमः देव्यै बालकृष्णमहोदय आञ्जनेयभक्ताः किं वदन्ति
आञ्जनेयभक्ताः आञ्जनेयाय नमः इति वदन्ति
सम्यक् महोदय शीलाभगिनी कृष्णभक्ताः किं वदन्ति
कृष्णभक्ताः
कृष्णाय नम इति वदन्ति.
सम्यक्, कृष्णाय नमः इति वदन्ति. धन्यवादः. Okay, so we have seen Rochate, Namaha, and here there are some more. Subodh Mahodaya, Kinchit Uchehi Patatu.
Starting with Kudyati?
Yeah, okay. You can see.
Kudyati, Kupyati, Asuyati, ईष्यति तुष्यति इत्येषां धातूनां प्रयोगः यत्र क्रियते तत्र क्रोधादीनां पात्रस्य चतुर्थी भवति. उदाहरणं रावणः रामाय कुद्यति, दुह्यति, ईष्यति. अभ्यासः अधः चत्वारः निर्दिष्ट्वा सन्ति, निर्दिष्टाः सन्ति. कः कं प्रति किं करोति इति बाणचिह्नेन सूचितम् अस्ति. तदाधारेण वाक्यानि रचयत.
धन्यवादः महोदय. सो बेसिकली इट् इस् सेयिङ्ग् लैक् वाट् एवर् दीस् these particular kriyas are used, so you have to use the chaturthi vibhakti, okay, towards whom this is used, and we'll explain it more in the next class, but we are beyond time now. I apologize. The time just went by, so keep in mind where you use the chaturthi. Okay, so for these specific kriyas that we have seen, particularly dadati, dattavan, and then rochate, then namaha, and then all these that we will see maybe in the next class. And then you have to keep in mind what is the lingam. Okay, trilinga, pullinga, napunsakalinga. So, and the appropriate chaturthi vibhakti you have to use. Okay, so since we are past time, no time for questions, unfortunately. If you have any, we'll address at the beginning of next class. And we'll do some homework also to make, you know, things a little more clearer. Samapayamaha, Pratana Mukva. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः.